एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा संयुक्त राष्ट्र संघीय विकासस्य कृते वित्त सम्बद्धस्य चतुर्थान्तरराष्ट्रिय सम्मेलनस्य क्रमे स्पेन देशे विद्यमानेन प्रधानमन्त्रिणा केपी शर्मा ओलिना ह्यः विभिन्नेषु उच्चस्तरीयेषु सहकार्यक्रमेषु सम्बोधितमस्ति। प्रधानमन्त्री ओली स्पेन सर्वकारस्य अध्यक्षेण प्रधानमन्त्रिणा पेड्रो सांचेज इत्यनेन आयोजिते विकास सहयोगे नवीन चिन्तन सम्बद्धे उच्चस्तरीय विमर्शने सहभागी भूत्वा स्वकीयान् विचारान् प्रस्तोत्। ह्य एव प्रधानमन्त्री ओली अल्पविकसितानां लघूनां राष्ट्राणाम् उच्चस्तरीय उपवेशे अध्यक्षतां विधाय सम्बोधनं विहितवान्। तदनु राष्ट्रप्रमुखाणां सर्वकारीय प्रमुखाणां प्रयत्नेन पेयजलस्य स्वच्छतायाश्च क्षेत्रेषु निवेशन सम्बद्धम् उच्चस्तरीयं विमर्शनं सम्बोधितवान्। अल्पविकसितानां राष्ट्राणाम् उपवेश्य अध्यक्षतां विदधान प्रधानमन्त्री ओली विकास सहयोगी राष्ट्राणि सेविया प्रतिबद्धतां पूर्णरूपेण परिपालयितुम् अनुरुणत्। गृहमन्त्री रमेश लेखकः नागरिकतायाः अभावेन असहायावस्थां प्राप्ताभ्य युवयुवतिभ्य सहजरूपेण मातुर्नाम्नि नागरिकतायाः प्रदानस्य व्यवस्थायां सर्वकारेण नेपाल नागरिकता विधेयकं निर्माय पारितीकृतमस्तीति स्पष्टीकरोति। राष्ट्रियसभायाम् एतद्विक्रमवर्षीयस्य विनियोजन विधेयकस्य गृहमन्त्रालयेन सह सम्बद्धेष् शीर्षकेष् सांसदै उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री लेखकः सर्वकारेण देशे शान्तेः सुरक्षायाः सुशासन स्थापनस्य च कार्येभ्यः प्राथमिकतां प्रदाय गृहमन्त्रालयाय आयव्ययकं विनियुक्तमस्तीत्यतः विधेयकमेतत् पारितीकर्तुम् अनुरुणत्। राष्ट्रियसभायाः ह्यस्तनोपवेशे परराष्ट्रमन्त्रिणः डॉ आरजू राणा देवाविदस्य पक्षतः परराष्ट्रमन्त्रालये सम्बद्धान् प्रश्नान् उत्तरयन् गृहमन्त्री लेखकः देशात् बहिःस्थितैः नेपालीभिः सह सहकार्यस्य कार्यम् अग्रे वर्धयितुं सर्वकारेण ईप्सितमस्तीति प्रावोचत्। राष्ट्रियसभायाः ह्यस्तनोपवेशे संघीय विषय सामान्य प्रशासन मन्त्री राजकुमार गुप्ता, भूमि व्यवस्था सहकारी विपन्नता मन्त्री बलराम अधिकारी, वन वातावरण मन्त्री ऐन बहादुर शाही ठकुरी, महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री नवल किशोर शाह सुरी च सांसदै उत्थापितानां स्वकीय मन्त्रालय सम्बद्धानां प्रश्नानां उत्तरं प्रायच्छन्। तत्पूर्वं राष्ट्रियसभायाः ह्यस्तनोपवेशे रक्षा गृहादीनां एकादशानां मन्त्रालयानां एतद्विक्रमवर्षीयस्य विनियोजन विधेयकस्य शीर्षकाणि आधृत्य समूहगतरूपेण विमृष्टं वर्तते। राष्ट्रियसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य एकादशवादने वसति। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः भाषते संघीय सर्वकारीय सेवा विधेयकस्य पारितीकरणस्य क्रमे गभीरं षड्यन्त्रं सम्भूतमस्ति। यौंग कम्युनिष्ट लीग इति भ्रातृ संघटनस्य केन्द्रीय पदाधिकारिणाम् उपवेशं सम्बोधयन् अध्यक्षः प्रचण्डः विधेयकस्य छलेन संशोधकाः जनाः अवश्यं दण्डनीया एवेति चर्चयन् अनुसन्धानं विधाय दोषिणो दण्डयितुं बलं प्रादात्। एवमेव नेपाली कांग्रेस दलस्य वरिष्ठ नेता डाक्टर शेखर कोइराला प्रतिनिधि सभातः पारितीकृतस्य संघीय सर्वकारीय सेवा विधेयकस्य कतिसूचित प्रावधानेषु परिवर्तने संलग्नः जनः दण्डनीया एवेति उक्तवान् अस्ति। ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे नेता डाक्टर कोइराला सर्वकारीय सेवातः त्यागपत्रस्य अनिवार्यावकाशस्य वा वर्षद्वयं यावत् अन्यत्र सर्वकारीय पदेषु नियुक्तिं लब्धुं नार्हतीति व्यवस्थायां राज्यव्यवस्था सुशासन सचिवालयस्य कर्मचारिभिः सांसदैश्च स्वेच्छया प्रावधानं स्थापितमस्तीत्यतः दोषिणो जनान् अन्विष्य ते दण्डनीयाः इति याचितवान्। प्रतिनिधिसभा राज्यव्यवस्था सुशासन समितेः सभापतिः रामहरि खतिवडा सर्वकारीय सेवा विधेयकस्य कतिसूचित प्रावधानेषु परिवर्तन सम्बद्धान् उत्थापितान् विषयान् अनुसन्धातुं सभामुखस्य देवराज घिमिरे विदस्य समक्षम् अनुरुद्धमस्तीति उक्तवान् वर्तते। सिंहप्रासाद परिसरे ह्य संचारकर्मिभिः सह भाषमाणः सभापतिः खतिवड़ा प्रतिनिधिसभातः रविवासरे पारितीकृतस्य संघीय सर्वकारीय सेवा विधेयकस्य कतिपयानां शब्दानां परिवर्तनस्य कार्ये संलग्नः यः कोऽपि दण्डनीय इत्युक्तवान्। सभापतिः खतिवड़ा अनुसन्धाने आत्मनो दोषः प्राप्स्यते चेत् दण्डं भोक्तुं तत्परता अस्ति इति च अवोचत्। राष्ट्रियसभायाः विधायन व्यवस्थापन समित्या सीमा प्रवेश शुल्क ग्रहण सम्बद्धम् अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयं विधेयकं पारितीकृतमस्ति। समितेः ह्यस्तनोपवेशे सभापतिना तुलसा कुमारी दाहालेन निर्णयार्थं प्रस्तुतं विधेयकम् एतत् समित्या सर्वसम्मत्या पारितीकृतमस्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः संसल्यमाने उपवेशे ह्यस्तन दिवसं यावत् पञ्चत्रिंशता केन्द्रीय पदाधिकारिभिः सदस्येश्च धारणा व्यक्ता अस्ति। विभिन्नेषु प्रस्तावेषु धारणायाः उपस्थापनस्य क्रमः सञ्चलन्नस्तीत्यतः कार्यसमितेः उपवेशः अद्य पुनः वसतीति दलकार्यालयस्य मुख्यसचिवः कृष्णप्रसाद पौडेलः असूचयत्। गत ज्येष्ठ मासस्य पञ्चदशात् दिवसात् अस्यैव आषाढस्य षोडशं दिवसं यावत् दुरापन्नास् चतुस्सप्तत्युत्तर षट्शते वर्षायामज विपद घटनास् एकत्रिंशत् जना मृता सन्ति, द्वादशाधिकशतं जना आहता वर्तन्ते इति राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन कार्यालयेन ज्ञापितं वर्तते।